सर्वेषां स्वागतं, प्रार्थनया आरम्भं कुर्मः. अस्तु भगिनि, पठतु.
शुक्लं वरदरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये. सरस्वति नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः. सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विषावहैः. शान्ति शान्ति शान्तिः. धन्यवादः भगिनि.
धन्यवादः. कृष्णो रक्षतु नः जगत्त्रयगुरुः, कृष्णं नमस्याम्यहम्. कृष्णेनामरशत्रवो विनिहताः, कृष्णाय तुभ्यं नमः. कृष्णादेव समुत्थितं जगदिदं, कृष्णस्य दासोऽस्म्यहम्. कृष्णे तिष्ठति सर्वमेततखिलं, हे कृष्ण रक्षस्व माम्. अस्तु, सुभाषितम् एवम् अस्ति. कोऽपि पठितुमिच्छति वा? श्रीनिवास महोदय पठितुमिच्छति वा?
सुभाषितम्. सदयं हृदयं यस्य भाषितं सत्यभषितं
भूषितम्.
सत्यभूषितं कायः परहिते यस्य कलिश्च करोति किम्. कलिः तस्य करोति किम्?
सम्यक्. कलिः तस्य करोति, कलिस्तस्य करोति किम्? सम्यक् महोदय, पुनरेकवारं पठति वा? धन्यवादः.
सतयं हृतयं यस्य भाषितं सत्यभूषितं कायः परहिते यस्य कलिस्तस्य करोति किम्?
करोति किम्? सदयम् इत् अस्तु, यस्य स दयं हृदयम् अस्ति. दयं दयापूर्ण पूर्ण स इति अस्ति चेत् विद् इति, लैक् सपाद इति वदामः खलु, सपाद इति पाद सपाद. स दयं हृदयं तादृश हृदयम् अस्ति चेत् दयं हृदयं दयं दयेन दयया दयया पूर्णं हृदयम् अस्ति. भाषितं यस्य भाषणं सत्यम् अस्ति, सत्यभूषितं भाषितम् अस्ति. यस्य भाषणं सत्यपूर्णम् अस्ति, भाषणं सत्यपूर्णम् अस्ति, हृदयं दयापूर्णम् अस्ति. यस्य कायः परहिते अस्ति, कायः इत्युक्ते शरीरम्. यस्य शरीरं परहिते, पराणाम् उपकारं कर्तुमेव तादृशकायः अस्ति चेत् तादृशपुरुषस्य तस्य कलि कलिपुरुषः कलिपुरुषः इति वदामः चेत् किं वदामः, कलिपुरुषः नाशं कर्तुम् आगच्छति तादृशपुरुषः इति अनुमानं कुर्मः. कलिकालम् इति वदामः चेत् साधारणतया नाशकालः खलु, एतत् कलिकाल तादृश कलि. सो अतः कलिपुरुषः किमपि हानिं कर्तुम् आगच्छति इति अस्ति. कलिपुरुषः किं करोति? किमपि न कर्तुं शक्नोति, यतः दयापूर्णं हृदयम् अस्ति, भाषणं सत्यं सत्यभाषणम् अस्ति, सत्यवचनमेव वदति, हृदयं दयापूर्णम् अस्ति, कायः परहिते अस्ति, तादृशपुरुषस्य कलिः किमपि कर्तुं न शक्नोति। अतिविवरणेन वक्तुम् एवमस्ति, यस्य हृदयं दयया पूर्णम् अस्ति, यस्य वचनं सत्यपूर्णम् अस्ति, यस्य शरीरं परहिते निरतम्, निरतम् इत्युक्ते अन्य किमपि नास्ति, निरतं मग्नं केवलं परहिते एव, तादृशस्य पुरुषस्य कलिपुरुषः किं करोति? किमपि कर्तुं न शक्नोति। कलिः तस्य हिंसां कर्तुं न शक्नोति। सो अत्र अत्र पश्यतु हौ दे आर् यूसिङ्ग् दिस्, हिंसां कर्तुं, सो इट् इस् सेपरेटेड् खलु, हिंसां कर्तुं विभज्यप्रयोगः, विभज्यप्रयोगः अस्ति चेत् षष्टिविभक्तिः भवति, तस्य हिंसां कर्तुं शक्नोति न शक्नोति। तादृशस्य पुरुषस्य उपरि कलिपुरुषस्य प्रभावः न भवति। किमर्थं न? यतः एषः धर्मं पालयति, एषः धर्मी गुणवान् च इति वदति सुभाषितकारः। प्रश्नः अस्ति वा अत्र?
न भगिनि, बहु सम्यक् विवरणं कृतवती भवती,
धन्यवादः। परन्तु अत्र सम्यक् अस्ति एव, धन्यवादः भगिनि। अस्तु, पुनरेकवारं पठित्वा अग्रे गच्छामः। सदयं हृदयं यस्य भाषितं सत्यभूषितं, कायः परहिते यस्य कलिस्तस्य करोति किम् इति। उत्तमम्। इदानीं अस्माकं कथा, कथा अस्ति बुद्धिपरीक्षा। जयश्री भगिनी पठति वा कृपया?
आं भगिनि। कुसुमपुरं नाम नगरं, तत्र नन्दः नाम राजा आसीत्। सः नृपः नन्दः अतीव बुद्धिमान्। नन्दस्य बुद्धिपरीक्षा करणीया इति एकदा तदाश्रितानां राजां राज्ञाम् इच्छा जाता। तदर्थं ते मुद्रलिङ्किताम् एकां सुवर्णपेटिकां तस्मै प्रेषितवन्तः।
सम्यक् भगिनी,
एकः नगरः आसीत्, तस्य नाम कुसुमपुरः, कुसुमपुरं
नगरं, नगरं नाम एव, नामः न, नाम
नगरः, नगरं नाम कुसुमपुरं। तस्य नगरस्य राजः, राजस्य नामः नन्दः, सः बहु बुद्धिमान् आसीत्।
राजा एव, राजा, परन्तु महाराजः, केवलं राजा अस्ति चेत् राजा एव, राजः न भवति।
तस्य राजा नन्दः नाम, सः बहु बुद्धिमान् आसीत्। तस्य परीक्षया एकदा राग् तदाश्रितानां राग्नम् भगिनी अहं न शक्नोमि।
अत्र तदा आश्रित, आश्रित इत्युक्ते डिपेण्डेण्ट् आन् हिम् इति, आश्रयम् इति वदामः खलु, आश्रयम् इति वदामः चेत् अत्र अन्य किमपि नास्ति, एकः एव कुटिलः अस्ति अतः आश्रमं तत्र आश्रमं कृतवन्तः सो अत्र आश्रितानां राज्ञाम् इच्छा जाता आश्रितानाम् इत्युक्ते राजा अस्ति नन्दः इति एकः राजा आसीत् अन्यराजानः नन्दमेव अवलम्ब्य डिपेण्डेण्ट् आश्रितं कृत्वा सन्ति आसन् देवर् आल् डिपेण्डेण्ट् आन् हिम् तद् आश्रितानां राज्ञाम् इच्छा जाता ते सर्वे चिन्तितवन्तः यत् नन्दस्य बुद्धिपरीक्षा करणीया
तदर्थं ते राज्ञां
अङ्कित इत्युक्ते इट् वास् किं वदामि पूर्वस्मिन् काले एकस्मिन् महाराजस्य एकस्य महाराजस्य मुद्रा अस्ति खलु
सम्थिङ्ग् लैक् सील् भगिनि
तादृशं मुद्राङ्कितानाम् एकां स्वर्णपेटिकां तस्मै प्रेषितवन्तः स्वर्णपेटिकायाः उपरि मुद्रा दे पुट् देयर् सील् तदर्थं ते मुद्राङ्कितानाम् एकां स्वर्णपेटिकां तस्मै प्रेषितवन्तः किं प्रेषितवन्तः पेटिकां प्रेषितवन्तः
भगिनि एकः प्रश्नः पेटिका स्वर्णमयम् आसीत् अथवा पेटिकायाः अन्ते स्वर्ण कायिन्स् किमर् आसीत्
नाणकानि
आसीत्
किमर्थम् इट् केन् बि बोत् भगिनि वि डोण्ट् नो इदानीं न जानीमः परन्तु स्वर्णपेटिका एव स्वर्णपेटिका इति स्वर्णमयपेटिका अथवा स्वर्णेन पूर्णं पेटिका तादृशमपि भवितुम् अर्हति
आं भगिनि
सम्यक् तस्मै प्रेषितवन्तः सो अत्र प्रेषितवन्तः वि यूस् चतुर्थी विभक्ति तस्मै प्रेषितवन्तः अस्तु अग्रे लता भगिनि सो यु गेटिङ्ग् योर् आन्सर् भगिनि लता भगिनि पठितुमिच्छति वा किमपि समस्या इति चिन्तयामि आडियो समस्या अस्तु निर्मला भगिनि अग्रे
अन्तः एकः दारुदण्डः आसीत् एकं पत्रम् अपि तत्र आसीत् पत्रे एवं लिखितम् आसीत् अस्य दारुदण्डस्य मूलभागः कः अग्रभागश्च कः इति सूचनीयम् इति दारुदण्ड भगिनी
दारु मीन्स् वुड् दारुदण्डः दण्डः इस् अडि स्टिक् स्टिक् मेड् आफ् वुड् दारुदण्डः इस् अ राड् दण्डः इत्युक्ते राड् अपि वक्तुं शक्नुमः दण्डः दारुदण्डः राड् मेड् आफ् वुड् दारुदण्डः आसीत् पेटिकायाः अन्तः एकं पत्रम् अपि आसीत् पत्रम् इति वदामः चेत् पर्णम् अपि इट् कुड् बि लीफ् पर्णं परन्तु अत्र लिखितम् आसीत् किं किं लिखितम् आसीत्
अस्य दारुदण्डस्य मूलभागः दट् इस् द बिगिनिङ्ग् अण्ड् द एण्ड् हि इस् आस्किङ्ग्
सो अत्र मूल इत्युक्ते अत्र रूट् इति रूट् इति अर्थे इत्युक्ते विच् इस् द बाटम् पार्ट् मूलभागः कः अग्रभागः द टाप् पार्ट् कः इति सूचनीयम्
भगिनि अत्र दारुखण्डस्य वा दारुदण्डस्य वा
दण्ड दण्ड
दण्ड अस्तु भगिनि धन्यवादः
ओ अत्र खण्ड अत्र अत्र खण्ड
खण्ड इत्युक्ते भागः वा
हा भागः ए पीस्
धन्यवादः
पूर्वं दण्डः अत्र अत्र खण्डः दारु दारुखण्डस्य मूलभागः कः अग्रभागः कः इति सूचनीयम् इत्युक्ते कथं सूचनीयम् इति सुलभः नास्ति इति ते चिन्तयन्ति अस्तु अग्रे सागरी भगिनी वदति वा
आं भगिनि अनेके बुद्धिमन्तः आगताः ते जपत्रे स्थितं प्रश्नं पठितवन्तः किन्तु उत्तरं न ज्ञातवन्तः तत्र अनेकाः बुद्धिमन्तः आगतवन्तः जपत्रे इत्युक्ते किं भगिनि
पत्रे एव अत्र पत्रे
पत्रे लिखितम् अस्ति तत् पठित्वा उत्तरं न दत्तवन्तः
सम्यक् धन्यवादः अत्र अनेके इति पदं वदामि केवलं केवलम् एक एक इति अस्ति एक न अन्य मोर् देन् वन् इति अर्थे अनेके अत्र पुल्लिङ्ग अतः अनेके सर्वे इव सर्वनामपदम् अनेके बुद्धिमान् इति एकवचनम् सो अत्र बहुवचनं बुद्धि बुद्धिमन्तः बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः भवान् इव भवान् भवन्तौ भवन्तः सो अत्र अपि बुद्धिमान् बुद्धिमत् भवत् शब्दः इव सो वि विल् लर्न् दिस् इन् गीतासोपानं टु बुद्धिमन्तः आगताः अत्रापि क्त प्रत्यय आगताः ते जपत्रे स्थितं प्रश्नं पठितवन्तः किन्तु उत्तरं न ज्ञातवन्तः सम्यक्
भगिनि एकः प्रश्नः अस्ति तत्र अनेके शब्दः प्रथमा बहुवचनं वा
प्रथमा बहुवचनं
मूलशब्दः अनेकः वा अकारान्तपुल्लिङ्गशब्दः
अनेक अनेक परन्तु तत्र सर्वदा बहुवचनमेव भवति
सर्वे शब्द समानम्
सर्वे इव अनेके परन्तु सर्वशब्दः एकवचनं द्विवचनं बहुवचनमपि भवति सर्वशब्दः
अनेके शब्दस्य एकवचनं किं भगिनि
न भवति एक इति एव
अस्तु अस्तु धन्यवादः
अस्तु सन्ध्या भगिनि भवती एव भगिनि
चन्दनदासः कश्चन श्रेष्ठः वाणिक् तस्य गृहे सुबुद्धिः नाम कश्चित् आसीत् सः पत्रवृत्तान्तं श्रुतवान् राजसमीपम् आगतवान् च तत्र एकः वणिकः अस्ति, वणिकस्य नाम चन्दनदासः. चन्दनदासस्य गृहे एकः बालकः अस्ति, तस्य नाम सुबुद्धिः.
अत्र वणिक् वणिक् इत्युक्ते वाणिज्यं करोति, इत्युक्ते बिस्नेस् मेन्,
ट्रेडर्. ओके,
ट्रेडर्.
सुबुद्धिः पत्रस्य कथां श्रुतवान्. तदनन्तरं सः राजसमीपं गतवान्.
सम्यक्. तस्य नाम चन्दनदासः इति.
वणिकस्य नाम चन्दनदासः, बालकस्य नाम सुबुद्धिः. चन्दनदासस्य गृहे सुबुद्धिः वसितवान्.
सो अत्र वसितवान् इति न वदामः, उषितवान् डिफरेण्ट्
वासं कृतवान् इति वक्तुं शक्नुमः वा भगिनि?
सम्यक्, वासं कृतवान् इतोपि सम्यक्, सुलभः अपि. चन्दनदासः श्रेष्ठः वणिक् इत्युक्ते बहु उत्तम वणिक्. श्रेष्ठः इत्युक्ते उत्तमजनः अपि, उत्तमजनः, बुद्धिमान्, सम्यक् चिन्तनं करोति इति श्रेष्ठः. श्रेष्ठः वणिक्. वणिक् अपि हलन्तपदं, लैक् भवत्, भगवत्, बुद्धिमत् इति वयम् उक्तवन्तः खलु इदानीमेव, तादृशं. परन्तु अत्र वणिज् जकारान्तपदं, वि विल् लर्न् दिस् इन् गीतासोपनं टु. जकारान्त् वणिक् वणिजौ वणिजः, दट् इस् द कान्जुगेशन्, वणिक् वणिजौ वणिजः. सो अत्र वणिजः इति बहुवचनम् अस्ति. तत् दृष्ट्वा वयं जकारान्तपदं वा ककारान्तपदं वा इति ज्ञातुं शक्नुमः. वणिक् वणिजौ वणिजः, वणिक् आसीत्, चन्दनदासः एकः वणिज्.
सो वयं कथं वदामः भगिनि, चन्दनदासः एकः वणिक् अस्ति वा वणिकः?
वणिक् द्वयम् अस्ति चेत् वणिजौ इति वदामः, वणिजौ.
धन्यवादः भगिनि.
अस्तु, वणिक् आसीत् तस्य गृहे. सो अत्र वणिजः गृहे इति भवति, तस्य गृहे.
षष्टिविभक्ति वणिज वा?
वणिजः. सो अत्र द्रष्टुं शक्नुमः वयं, सो संसादिनी. सो वेन् एवर् यु आर् क्यूरियस् दिस् इस् गुड्. So if I write Vanik, it may not come up, I don't think. See?
Vanik.
You have to put the correct one. That is the problem with this site. Vanij. If you don't know, it won't work.
Vanija. Okay.
Vanij. Vanik atava Vanig bhavati. Vanija Vanijaha.
Shashti
Vanijaha. Vanijaha. Like... भवतः, भवन्तं, भवन्तौ, भवतः इति द्वितीया विभक्ति बहुवचनं. द्वितीया विभक्ति बहुवचनं पञ्चमी षष्ठी समानं एकवचनं समानं भवति
प्रथमा द्वितीया षष्ठी
प्रथमा तादृशं नास्ति परन्तु द्वितीया पञ्चमी षष्ठी द्वितीया बहुवचनं पञ्चमी षष्ठी एकवचनं समानं भवति
प्रथमा बहुवचनं किं भगिनि वणिजः
अत्र वणिजः परन्तु सर्वदा तथा न भवति इति वदामि वणिजः एव अत्र अत्र वणि रजाः इत्युक्ते किं रजाः ओ रजकः दट् इस् रजकः
रजस्
रजस्
सकारान्त
रजस् सो दट् इस् अस्तु एतादृशं वेरि इण्ट्रेस्टिङ्ग् अस्तु सः प्रवृत्तं श्रुतवान् इत्युक्ते सुबुद्धिः सुबुद्धिः सर्वं श्रुतवान् राजसमीपम् आगतवान् च अस्तु अग्रे सविता भगिनि
आं भगिनि सुबुद्धिः नन्दम् उक्तवान् महाराज अत्र विचारणीयं किम् अस्ति तं दारुखण्डं जले निक्षिपतु यः भागः जले निमज्जति सः मूलभागः यत् मूले एव भारः अधिकः भवति यः भागः जलस्य उपरि प्लवते सः अग्रभागः इति सुबुद्धिः नन्दम् उक्तवान् किं विचारणीयं दारुखण्डे जले निक्षिपतु यः भागः जले निमज्जति सः मूलभागः अस्ति यत् भागः जलस्य उपरि प्लवते सः अग्रभागः इति अहं चिन्तयतु इति
अहं चिन्तयामि सम्यक् सम्यक् सो अतः सः आगत्य अत्र विचारणीयं किम् अस्ति सुलभः एव खलु प्रश्नः इति दारुदण्डं जले निक्षिपतु क्षिपतु इत्युक्ते थ्रो क्षिपतु निक्षिपतु थ्रो इट् डौन् इति जले निक्षिपतु यः भागः जले निमञ्जति सः चिन्तयति वर्टिकलि आम् सम्यक् निमज्जति सो अतः सुबुद्धिः वदति मूलभागः एव जले निमज्जति अग्रभागः उपरि प्लवते इति प्लवते इस् टु फ्लोट् इति सो अतः अग्रभागः उपरि आगच्छति अतः वयं सुलभतया द्रष्टुं शक्नुमः मूलभागः कः अग्रभागः कः इति सुलभः एव खलु इति
भगिनि निमज्जति अर्थं किम्
अर्थम् इस् टु बि इमर्स्ड् इति अस्तु श्रीनिवास किं भगिनि
हिन्दी इस् काल्ड् डुबानेका
ओ डुबानेका आम् अस्तु धन्यवादः श्रीनिवास महोदय
अनेन राजा सन्तुष्टः सः सुबुद्धिम् एव मन्त्रिपदे नियोजितवान् सः एव सुबुद्धिः एकस्मिन् युद्धे भयं विना घोरं युद्धं कृतवान् ततः आरभ्य सः अमाद्य राक्षसः इति प्रसिद्धम् अभवत् संस्कृते ममाद्य राक्षस ओके सुबुद्धिम् उत्तरं श्रुत्वा नन्दः सन्तुष्टः सः मन्त्रिपदवीं दत्तवान् सुबुद्धि एकं युद्धे भयं विना युद्धं कृतवान् ततः तस्य नाम अमाद्य राक्षसः इति प्रसिद्धं भवति
प्रसिद्धः नाम नास्ति नाम नाम एव नाम सम्यक् सो अत्रापि अमात्य राक्षसः इति पूर्वमपि पठितवन्तः खलु वयम्
आं भगिनि
अमात्य राक्षसः इति प्रसिद्धः आसीत् अन्य किम् अन्यराजा तस्य राजाङ्गं स्वीकृतवान् अमात्य राक्षसः कुत्रापि गत्वा तादृशं कथा अपि आसीत् अस्तु सो अत्र अनेन इत्युक्ते एतेन एतेन इत्युक्ते सः एवम् उक्तवान् एतेन एतं श्रुत्वा इति बै दिस् इति अर्थे अनेन एतेन बै दिस् वयं वदामः खलु एवं श्रुतवान् he heard like this iti tadasham anena like this by this anena athava etena etena raja santushtah asit anena iti subuddhi mantri pade viyojitavan he appointed him mantri pade appointed him iti amatya rakshasah iti prasiddah abhavat सः एव सुबुद्धिः प्रश्नः अस्ति वा अस्तु वयम्
अनेन कः पदं प्रातिपदिकं कः
प्रातिपदिकं न जानामि परन्तु अत्र तृतीया विभक्ति एतत् एतेन सो अहं चिन्तयामि अयम् इति अयम् अत्र द्रष्टुं शक्नुमः
इदम्
इदं वा
इदम् इदम्
इदम् इदमेव नपुंसकलिङ्गम्
मकारान्त पुल्लिङ्ग
पुल्लिङ्गं वा न अहं चिन्तयामि सर्वनामपदम् इदम् अनेन सर्वनामपदम् धन्यवादः भगिनि अस्तु अस्माकं गीतासोपानं प्रति गच्छामः वयं उपसर्गविषये किञ्चित् पठितवन्तः इतोपि अधिकं पठित्वा एव ज्ञानं स्थिरं भवति एवं दृष्ट्वा अर्थः कः इति वक्तुं न शक्नुमः परन्तु वाक्यम् अस्ति चेत् अवगन्तुं शक्नुमः इति वयं ज्ञातवन्तः इदानीं तवतु प्रत्ययम् अपि उपयुज्य भूतकालं वक्तुं शक्नुमः पूर्वं वयं किं पठितवन्तः लङ्लकाररूपं लङ्लकाररूपम् एव लकारः भूतकालं सूचयितुं लकारः लङ्लकाररूपः परन्तु तवतु प्रत्ययः अपि अस्ति अत्र लकारः नास्ति प्रत्ययः इत्युक्ते गम् धातु अस्ति अनन्तरम् आगच्छति धातोः अनन्तरम् आगच्छति प्रत्ययः, परन्तु धातोः पूर्वम् अस्ति उपसर्गः, मिलित्वा अत्र रूपम् अस्ति. गम् धातु तवतु प्रत्यय गतवान्, आ इति उपसर्गं योजयित्वा आगतवान् इति अस्ति. लङ्लकाररूपे प्रति अस्ति प्रत्यागतवान्, प्रत्युदितवान् एतादृशम् अस्ति. सो अत्र अवदत् खलु, वद् धातु अवदत् इति पठितवन्तः वयम्. अवदत् प्रति अवदत् प्रत्यवदत् प्रत्यवदत्. परन्तु पूर्वं वयं किं पठितवन्तः, वदति इति अस्ति चेत् उक्तवान् खलु, परन्तु इदानीम् उक्तवान् न उदितवान्, उदितवान् उक्तवान् कुत्र आगच्छति, ब्रू धातु अस्ति चेत् आगच्छति. ब्रू अस्ति वा इति पश्यामि. अस्तु, अत्र नास्ति. अष्टाध्यायी मध्ये द्रष्टुं शक्नुमः वयम्. उक्तवान् खलु,
भगिनी पृष्ठसङ्ख्या 92 मध्ये अस्ति ब्रू धातु.
आ अस्तु, परन्तु ऐ डोण्ट् वाण्ट् टु गो बेक् भगिनी, सो आल् लुक् हियर्. सो अत्र ब्रू धातु अस्ति चेत् अत्र उक्तवान् तवत्तु प्रत्यय अस्तु वा. सो अत्र वदति इति अस्ति चेत् वद् धातु एतत् स्वीकृत्य वदति कृदन्तरूपम्, अत्र उदितवान् एव सम्यक् रूपम्, उदितवती उदितवान् उदितवान् उदितवती. सो अत्र किञ्चित् परिवर्तनं करणीयं वयम्. ओके, सो आल् दिस् टैम् वि लर्न्ट् उक्तवान्, बट् नौ दे चेञ्जिङ्ग् इट् टु उदितवान्. किमर्थम् इत्युक्ते ब्रू धातु अस्ति, ब्रू धातु आत्मनेपदी धातु, आत्मनेपदी धातु. सो अतः तत् मा उपयोगं करोतु इति सः वदति. अस्तु, सो प्रतिवदति प्रति अवदत् प्रत्यवदत्, उदितवान् प्रति उदितवान् अथवा प्रत्युदितवान् प्रत्युदितवान्. सो अत्र एतादृशम् अस्ति, निराकरोति निर् आ अकरोत् निराकरोत् निर् आकृतवान् अनुकृतवान्. अर्थं जानीमः वा, आगच्छति आनयति प्रतिवदति. प्रतिवदति इत्युक्ते उत्तरं ददाति अथवा अनुवदति अपि. निराकरोति
रिजेक्ट्,
अनुकरोति पुनः करोति
फालो
कापि. प्रविशति to enter, प्रवेशं गृहप्रवेशम् इति वदामः खलु, टु एण्टर्. विलिखति टु रैट् एव, लिखति विलिखति समानार्थकपदं. परिहारं, सो दिस् इस् अ भिन्न अर्थं भवति. हरति इस् टु टेक् अवे अ संथिङ्ग्, परिहरति इस् टु परिहारम् इस् टु मेक् अमेन्स् कैण्ड् आफ्. गच्छति अवगच्छति, अवगच्छति to understand. Niyum yuktavan yukta yukta
means appointing bhagini.
Niyukta is appointed, correct. Niyukta is appointed. Yukta means appropriate one, like yukti. Yukta lokate avalokate samanartaka padam pashyati,
something like avagachyati only, bhagini.
No, this is like pashyati, avalokanam. Ekavaram avalokanam karotu, look it up one more time. Adatta dattavan,
datta is giver.
Dattavan, adattavan, I think samanartaka padam, na janami. Nyatavan, upanyatavan, jatavan. Jatavan, upajatavan. Pannavan, ahamnasutavan. Prapadyate, vartate, nivartate. Nivaranam kritavan, vartate means atra asti iti. Vartavan, nivrutavan, to go back. Vartate means it is there. Tatra vartate. Jayate means to be born or utpannam abhavat. Suddenly something came up in my mind. Iti. Manasi etadusha chintanam jayate. Like that. Jataha.
Vartate is to exist, isn't it, Bhagini?
Exist. Vartate is to exist. Nivartate is reverse, kalo? Nivartana.
To get rid of something.
Nivartanam is to
get
go
your,
back.
To
return. Return.
Upajatavan would be?
Na janami. I don't know this one.
Okay.
And this one also.
Upajatavan could be to grow, Bhagini. Upaj in Hindi.
Uh-huh. Astu.
Upajayate is to grow.
Is to grow. Probably. Yeah. Dattavan, adattavan. Adattavan. Etat api pashyatu kripaya. Prapanna in slokas we see a lot, right? Prapanna parijataya totrave paniye. Prapanna parijata. What is prapanna?
Prapanna means it's bloomed.
Kim?
The one which is open.
Bloomed, I think.
Bloomed. Okay, good. Prapanna parijata.
Bloomed parijata. It could be.
Vartate comes in Gita. The life cycle is jayate, vartate, vinashate. That thing that vartate comes there.
Correct. Jayate is to be born. Vartate is to exist.
Grow, die, and that model.
Vartate.
Bhagini, Gita Adhyay kaha, he says?
Na janam, Bhagini. Prapanna parijata.
Prapanna parijata is part of the initial thing. What do you call it? That Dhyana Sloka. Prapanna parijata is a Dhyana Sloka. It's not before Gita.
Okay. It's like the Gita Dhyana, Samyak. Yeah. So, very, very interesting. Astu. Punah etadushameva. Aharati. Kriyapadam asti aharati. So atra api harati means to take away. Aharati is to consume, kind of. Aharam iti. Aharati. Aharat. So atra rupam asti harati pratamam aharat. Anantaram a iti yojaniya. So atra api harati hritavan. Anantaram ayojaniyam ahritavan. So how to come up with the रूपम् आगच्छति कथं कथं लिखामः प्रथमम् अगच्छत्
अगच्छत्
अनन्तरम् सो आगच्छत् सो अत्र गतवान् आगतवान् गच्छति गतवान् अनन्तरम् आ योजनेन आगतवान् इति भवति तिष्ठति उत्तिष्ठति तिष्ठत् अतिष्ठत् उत् अतिष्ठत् सो दिस् बिकम् बकारः भवति बिकास् आफ् अ सन्धि जष्ट् सो वि काल् इट् जष्ट्वसन्धि बट् एनिवे दर् इस् अ सन्धि सो इट् बिकम् उदतिष्ठत् परन्तु अत्र तवतु रूपं स्थितवान् भवति स्थादातु किमर्थम् इत्युक्ते स्थादातु धातु अस्ति स्था सो इट् बिकम् स्थितवान् स्थित्वा लैक् दट् स्थित्वा स्थितवान् अनन्तरं वि आड् उत् टु इट् उत् स्थितवान् उत्थितवान् गच्छति इस् वेरि सिम्पल् अगच्छत् अनु अगच्छत् सो अत्रापि सन्धिकार्यं भवति यान्तवान्तादेशसन्धिः अन्वगच्छत् सो दिस् इस् आल्सो अनदर् सन्धि अन्वगच्छत् सो अत्र सन्धिकार्यं भवति सर्वदा वेन् वि हेव् उपसर्ग उपसर्गः अस्ति चेत् सन्धिकार्यं निश्चयेन भवति सो आ सिम्पल् आ एव उत् अ उद अनु अ अन्व ऊ बिकम्स् व अन्व गच्छत् अत्र किं किं भवति अगच्छत् विल् बिकम् गतवान् अनन्तरम् अनुगतवान् अनुगतवान् सो अत्र किं भवति अत्र आ नास्ति अतः अनुगतवान् एव अनुगतवान् अस्तु सरति किं भवत् किं भवति अत्र सरति सो अत्र प्रथमं लेट्स् डू इट् इन् स्टेप्स् ओके प्रथमसोपानम् अस्ति असरत् देन् अनु सो वि फालो द सेम् पेटर्न् अन्वसरत् सरति विल् बिकम् श्रुतवान् सो इट् इस् अ श्रुधातु ओके यु केन् चेक् इट् अप् इन् अष्टाध्यायी श्रुधातु सो सो इट् विल् बिकम् श्रुतवान् देन् अनुसृतवान् अनुसृतवान् एव अहरत् प्रहरत् सो अत्र प्र अस्ति सो विच् मीन् दर् इस् एन् अ हिडन् हियर् अ प्लस् अ विल् बिकम् अ प्राहरत् अत्रापि हरति द मूलरूपम् इस् हृ धातु इस् हृ जस्ट् लैक् सृ हृ सो इट् बिकम् हृतवान् प्रहृतवान् so so it becomes like a math puzzle very precise bhavati astu prakshalayati so it will become pra and then kshalayati so prathamam kshalayati kim bhavati a prathamam a and then kshala
यत्
यत् अक्षालयत् अनन्तरं प्र अस्ति सो टोटल् हौल् इति आहत्य टुगेदर् अत्र आ अस्ति अत्रापि अ अस्ति स्वीकं प्राक्षालयत् तव तु प्रत्यय कथं भवति क्षालयते
क्षालितवान्
क्षालितवान् And then, pra. Kevalam pra. Prakshalitavan.
Shalayitavan, Bhagini. Shalayati.
Shalayati, parantu kshalitavan eva. Pashyamaha. Only for Bhavishyat Kala, it becomes like that.
Oh, okay.
Kshalayati is actually kshal dhatu and it is a churadigana. For churadigana only it will become yati, yati like that. Kshalayati, kridanta rupa. Kshalitava. So whenever there is a doubt, please check it up, okay? Because sometimes I make mistakes too. So for Bhavishyat Kala, Kshalayishyati. Dhanyavada Bhagini. So, Prakshalitavan. Viharati. Sadhanataya Harati, Sarati, Etadisham is actually Hr. सो अत्र विहरति प्रथमम्
अहरत्
अहरत् अहरत् अण्ड् देन् वि सो वित् वि सो वित् वि अण्ड् द अ इट् बिकम् व्यहरत् 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 अत्र हरति कृतवान्
कृतवान्
ओके कृतवान् अण्ड् देन् विकृतवान् इस् वाट् ऐ थिङ्क् विहृतवान् विहृतवान् अग्रे परित्यजति
सारी टु इण्टरप्ट् देयर्स् सम् बेक्ग्राउण्ड् नोइस् भगिनी ऐ थिंक समबडी
ओके ऐ एम् गोइंग टु
म्यूट देमसेल्व्स या थैंक यू सो मच
ऐ जस्ट म्यूटेड
धन्यवाद भगिनी
धन्यवाद सो हुवर् वाण्ट्स् टु टाक् टाक् अण्ड् देन् गो बेक् टु म्यूट् ओके धन्यवादः अस्तु अत्यजत् प्रथम सोपानम् इस् लैक् दिस् अत्यजत् अण्ड् देन् परि सो वेन् एवर् वी हेव् एन् ई अण्ड् अ इट् बिकम् अ य पर्यत्यजत् पर्यत् किं महोदय सो इट् बिकम् पर्य सो सो हियर् इट् वास् व्य वि अन्दन य व्य इट् इस् नौ इट् इस् इर् अन्दन य पर्य पर्यत्यजत् सो अत त्यजति वाट् विल् बि द तावत् प्रत्यय
त्यक्तवान् भगिनि
त्यक्तवान्
त्यक्तवान् सो वि आड् द परि परित्यक्तवान् अत्र सन्धिकार्यं नास्ति देर् इस् नो सन्धिकार्यं हियर् परित्यक्तवान् सो द सन्धिकार्यं विल् हेपन् ओन्लि इफ् इट् इस् swara and swara together, vyanjanam and vyanjanam together. Swara and vyanjanam together, it will be a gunitakshara. Like if you have a ik and then an a, it will become ka. Like that. Swara and vyanjanam together. Kim?
Maximum confusion of sandhi is visarga.
Lot more, Mahodaya.
Visargam is one which brings to me.
So, okay. Now, what are you, Vyanjan and Swara is together?
No, then it will become Gunita Akshara. Gunita, like for example, Ik and O, right? Will become Ko. So this is not a sandhi. This is only a joining of aksharani. That's it.
Dhanyavad.
Sandhi means there will be a change. Parivartanam asti chet eva sandhi iti namakaranam asti. No chet nasti. Asto. Nikshipati. Atra api. Kshipati. Nikshipati. So, achipati, akshipat, pratama sopanam asti, akshipat, and then ni. Atra e asti, a asti, so it will become nya. These two together will become nya. So, nya kshipat. तव तु प्रत्यय कथं भवति क्षिपति
निक्षिप्तवान्
क्षिप्तवान् नियोजनेन निक्षिप्तवान् इति भवति सम्यक् अस्तु सो ओके उपसर्गयुक्तैः लङ्लकाररूपैः वाक्यानि पूरयत सो वि विल् ट्रै टु डू बोत् लङ्लकाररूपम् अपि च तावत् रूपमपि कर्तुं प्रयत्नं कुर्मः समयः अभवत् सो आरम्भं कृत्वा अग्रे गच्छामः उदाहरणार्थं पाण्डवाः अज्ञातवासात् आगच्छन् सो अत्र आगच्छन् इति अस्ति आगच्छन् लङ्लकाररूपं तावत् रूपं कथं भवति मिलित्वा कुर्मः अग्रिमवर्गे एकमेकम् आगच्छन् इति अस्ति
आगतवान्
एकवचनम् आगतवन्तः एवं समयः किञ्चिदेव अस्ति अस्तु
भगिनि
ओ सम्यक् आमामां सारी भगिनि अस्तु अस्तु तर्हि एकमेकं कुर्मः सेना सेनापतिम् इति अस्ति अनुसृ सो अत्र लङ्लकारं लिखामः अत्र तवतु प्रत्ययरूपं लिखामः अस्तु अधस्तात् आगच्छामः सविता भगिनी
सेना सेनापतिम् अनुयोगसृ सेनापति अनुसृतवान्
अनुसृतवान् सम्यक् सम्यक् भगिनि अनुसृतवान्
अनुसृतवान् भगिनि वयं लङ्लकारूपे
लङ्लकारं कथं भवति भगिनि सा एव करोतु भगिनि सविता भगिनी एव करोतु प्रथमं श्रुतवान् सरति सो अत्र लकारः अस्ति सरति सो तदपि लिखामः गच्छति इति सरति सो फ्रम् सरति असरत् प्रथमम् अस्ति असरत् अनन्तरम्
अनु
विल् बिकम्
प्लस् ओ यस्
तव तु प्रत्यय अनुसृतवान् इति भवति अन्वसरत् अनुसृतवान् सम्यक् भगिनि धन्यवादः सन्ध्या भगिनी अग्रे
द्रोणाचार्यः शस्त्रं निक्षिप्तवान्
सम्यक् लङ्लकारे
लङ्लकारे नियोग अक्षिपत् न्यक्षिपत्
इट् बिकम् अक्षिपत्
न्यक्षिपत्
सो अत्र सो इफ् यु रैट् द लट् लकार इट्स् ईजियर् टु कम् अप् वित् द लङ् लकार
नियोग
अक्षिपत् नियोग अक्षिपत् सो अत्र नियोग अ विल् बिकम् न्य न्यक्षिपत्
निक्षिप्तवान् न्यक्षिपत्
सम्यक् सागरी भगिनि अग्रे
आं भगिनि व्यासः महाभारतं नौ लिक् इस् लिखति लिखति देन् वि हाव् विलिखति then we will have v plus a will become vya
vya
so it will be vya likat
vya likat so this will become a likat then vya likat samyak
Bhagini, in Lik Dhabu, there will come as a Lekitavan or something, right? That changes, the Rupam changes in Lik Dhabu, no?
That is for Bhavishyat Kala. Lekishyati. Lekitum.
Rupam changes
happens, but I don't know. Satra, Dakshina Bhage Kim Bhavati, Tavatu Pratyaya. सागरी भगिनी तव तु प्रत्यय
तव तु विलिखितवान्
विलिखितवान् अत्र लिखि लिखि भवति लिखितवान् सम्यक् विलिखितवान् सम्यक् निर्मला भगिनी अग्रे Yeah, I can hear you, Bhagini. I can hear you, Bhagini. Kinchit mandam asti.
Abhi,
अभिमन्युः व्यूह बहिरागमनं विस्मृतवान्. करेक्ट् भगिनि?
विस्मृतवान्, स्मृतवान् एव, स्मृतवान्.
वि प्लस्
स्मरति, परन्तु स्मरति. सारति श्रुतवान्, स्मरति स्मृतवान् एव. अस्मरत् व्यस्मरत् सम्यक् सम्यक् भगिनि. अत्र विस्मृतवान् सम्यक्. अग्रे तथा भगिनि.
देवः भक्तान् परि प्लस् पाल परिपालयति. प्रत्ययः परिपालितवान्. लङ् रूप परि प्लस् अपालयत्. सो परि प्लस् पालयत् पर्यपालयत्.
सम्यक् पर्यपालयत् सम्यक्. सो अत्र पर्य इति भवति पर्य पर्यपालयत् सम्यक्. जयश्री भगिनि.
आम् भगिनि. आपः समुद्रं प्रविशति. आपः समुद्रं प्रविशितवान्.
सो अत्र प्रविष्टवान् इति भवति. अत्र अत्र अपि सन्धिकार्यम् अस्ति. प्रविष्टवान्
प्रविष्टवान् प्लस् अविशत्
अविशत् प्रा इति भवति. अविशत् प्राविशत् अस्तु. अग्रे अम्ब अम्ब वक्तुमिच्छति.
भगिनि, इस् इट् नाट् प्र प्लस् विश् फार् तत् इक्तोत् प्रत्यय प्रविष्टवान्. इट् इस् नाट् प्रवेशितवान्.
न न न प्रविष्टवान् एव.
प्रविष्टवान्. ओके ओके, धन्यवादः.
पश्यामः. वेनेवर् देर् इस् अ डौट् वि शुड् चेक् भगिनि. विश् विश् धातु. विशति. ऐ डोण्ट् नो इफ् इट् विल् सो इट् विल् शो विष्टवान्. सो वित् द प्र प्रविष्टवान्. No, that is pravesham kritavan. Gruha pravesham.
Pravesham, so that I thought it is praveshitavan.
Okay. Nischayana. Whenever in doubt, we definitely have to check it out. Dhanyavadah.
Asta.
Dhanyavadah. Amba, vaktum ichyati va?
Bhagini, what's the meaning of pravishtavan?
Entered.
प्रवेशं कृतवान् इस् द सेम् एस्
प्रविष्टवान्.
धन्यवादः.
अस्तु अस्तु. चम्पा भगिनी अग्रे.
आं भगिनि. ईश्वरः भक्तानां समस्यां परि अधिकहृत् लङ्लकारे परिहरत्
अहरत् सम्यक् भगिनि. अहरत्
परिहृतवान्
सम्यक् सो अत्र पर्यहरत् सो अत्र सन्धिकार्यम् एवं भवति पर्यहरत् परिहृतवान् सम्यक् अस्तु सम्यक् श्रीनिवास महोदय
आं भगिनि भक्तः देवाय पुष्पं प्रयच्छ ओके यच्छति ददातु सो भक्तः भक्तः देवाय पुष्पं
प्रयच्छति साधारणतया इच्छति इति अस्ति चेत् कथं भवति भूतकाले इच्छति इच्छति विकम् इष्टवान् खलु इष्टवान्
Okay.
Mm-hmm. So, yachati will become, I don't know, I have to check. Yachati, Kridanta Rupam. Oh, Dattavaneva.
Okay.
Okay, so I had my doubt here.
Prayachat Pagini, Prayachat.
सो अत्र दत्तवान् एव अस्ति भगिनि प्रदत्तवान् सो वी केन् चेक् इन् दि आन्सर्स् डू यु डस् एनिबडि हेव् द बुक् इन् फ्रण्ट् आफ् यु
सो
या सो प्लीस् चेक् दि आन्सर् किम्
अस्ति
एवं वा
प्रायच्छत्
ङ्ग्लकार ओ दे नाट् गिविङ्ग् द कृदन्त अस्तु 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 तर्हि
भगिनि ऐच्छत् देन् इट् बिकम्स् केन् यु जस्ट् गिव् द स्टेप्स् भगिनि
So this is Aichat. Pra, A plus I, I think it stays as I. Praichat.
Praichat.
Praichat. Praichat. Right. So, Atra, Yachai is actually Da Dhatu Pradattavan Eva. So, this is Pradattavan. अस्तु अग्रे श्रीनिवास महोदय पुनः करोतु
ओके ज्ञानी वृजिनं तं द्रु
तृ मीन्स् ऐ थिङ्क् तरति
तरति ओके
ऐ थिङ्क् इट् इस् तरति तं तरति अस्तु तरति कृदन्तं फार्म् इस् तरति सो द लङ्लकार महोदय श्रीनिवास महोदय अतरत्
अतरत् सम् इन् प्लस् विगम संतरत् because it samatarat, okay, not him will not have become,
yeah, so that is im plus a will become ma,
okay, samatarat, okay,
samatarat, right, it becomes samatarat, so atra tr it is teernavan, okay.
Teernavan,
Samteernavan. Samteernavan. So, the tru dhatu, let me just make sure.
Samteernavan, because the tak or the last thing will come. Now, im will become in, right?
In. Yeah, it will become in. So it is actually, yeah. Sam, but it will become Samteernavan. When you pronounce it, it becomes in.
भगिनी क्षम्यतां भगिनी भक्तः देवाय पुष्पं यच्छतील प्र प्लस् लङ्कुरूपं वन् प्र प्लस् अयच्छत् अपिना प्रायच्छत् वरादा
प्लस्
अयच्छत् अयच्छत् तन लङ्कुरूपम्
ऐच्छत् दट्स् अ गुड् क्वश्चन् पश्यामः किम् अस्ति इति पश्यामः यच्छति
अयच्छत्
अयच्छत् एव वा ऐच्छत् ऐच्छत् नास्ति वा अस्तु
युष् दातु कदा ऐच् ऐ ऐ कम्स् भगिनि इति यच्च अल यच्च
ओ ओ ऐ सी इष्ट इच् दातु ऐच्छ अस्तु अस्तु सो अत्र अयच्छत्
सो प्र प्लस् अयच्छत् बिकम्स् प्रायच्छत् राइट्
आमाम्
ओके धन्यवादः भगिनि
धन्यवादः सो ऐ डिड् इट् राङ्ग् हियर् धन्यवादः भगिनि सो दिस् इस् अयच्छत् Number 9. Dhanyavada bhagini. Pra ayachat. So it will become prayachat. Kalo? Pra.
Prayachat.
Prayachat. Thanks for correcting me, bhagini. Uttama. Astu. Champa bhagini. Bhavati eva.
कृष्णात् सर्वं प्र अधिकृत् वर्तते सो
वर्तते इस् द
सो
वर्तते विल् बिकम्
वर्तते वर्तितवान् प्रावर्तितवान् निवृत्तवान्
सो अत्र लङ्लकार कथं भवति भगिनि
लङ्लकार प्रार्वर्तत्
सो अत्र वर्तते आत्मनेपदी अस्ति चेत् लङ्लकारे अवर्तत एव वर्तत् न भवति वर्तत प्रावर्तत अत्र प्रा इति भवति प्रावर्तत अत्र किं भवति
वर्तते सो
पश्यामः वा वर्तते
वर्तते
वर्तते कृदन्तरूपं
वृत्तवान्
प्रवृत्तवान् इति भवति प्र अनन्तरं वृत्तवान् प्रवृत्तवान् अस्तु एवं भवति. सम् धातुस् आर् डिफ्रेण्ट्, ओके, डजन्ट् फालो द पेटर्न्. अस्तु, अम्ब पठितुम् इच्छति वा? सृज् अस्तु, अग्रे जयश्री भगिनि.
अर्जुनः गाण्डीवं वि प्लस् सृजति विसृजति. अर्जुनः गाण्डीवं असृजत् वि प्लस् असृजत् व्यसृजत्
व्यसृजत् सम्यक्
विसृजितवान्
सृजितवान् पश्यामः वा सम्यक् वा इति.
आं भगिनि पश्यामः.
सृज् धातु इत्युक्ते किं? सृज्
सृज् मीन्स् टु रिमूव्
रिमूव् सृज्यते. सो अत्र आत्मनेपदी धातु सृज्यत लङ्लकार.
ओ आत्मनेपदी सृजते असृजत्
कुत्र अस्ति लङ् ऐ थिङ्क् ऐ फास्ट् लङ् लङ् असृज्यत असृज्यत सृष्टवान् भिन्नरूप सृष्टवान्
सृष्टवान् विसृष्टवान्
तत्र असृज्यत तत्र सृजति न सृजते. अस्तु अस्तु अग्रे लता भगिनी.
आं भगिनि श्रद्धवान् शान्तिम् अधिगम् अधिगच्छति अधिगच्छति
अधिगच्छति
अधि प्लस् अगच्छत् इ प्लस् अद्य अद्य गच्छत्
अद्य गच्छत्
अद्य गच्छत् अधि अधिगतवान्
अधिगतवान् सुलभः एव.
धन्यवादः.
अस्तु अग्रे निर्मला भगिनि. पद्यते अहं चिन्तयामि आत्मनेपदी धातु इति प्रपद्यते इति अस्ति खलु प्रपद्यते पद्यते प्रपद्यते अपद्यत
प्रापद्यत
प्रापद्यत सम्यक् प्रापद्यत
प्रापदितवान्
न जानामि आत्मनेपदी ऐ एम नॉट कंफर्टेबल पद
भगिनी इज इट प्रापदत और प्रापद्यत
सो इट डिपेंड्स भगिनी इफ इट्स एन आत्मनेपदी आत्मनेपदी मींस इत न भवति
इत ओके ओके दिस इज आत्मनेपदी धन्यवाद भगिनी.
पद्यते कृदंत रूपं किम् ओ भिन्न रूपं पन्नवान् so I didn't think it was padditavan prapanna oh, prapanna parijataya remember we saw that one Pannavan. So the thing is, we have to remember. That's the thing. I did not remember that.
Prapannavan.
Prapannavan. So we saw that prapanna. We saw the same thing. Prapadyate. Praapadyate. Prapadyata. And then it becomes pannavan.
Prapannavan or prapannavan?
Pra eva. Prapannavan. Prapannavan. So we have to read it many times so we'll remember. That is the difficult part. Okay. Prapannavan. Astu. Agre ka? Lata bhagini uttavati. Nirmala bhagini. Sagari bhagini. Sagari bhagini.
Am bhagini. भक्ताः देवं पत् इस् इट् पतति द फस्ट् स्टेप्
आम् ऐ थिङ्क् पतति
देन् इट् बिकम्स् अपतत्
अपतत्
देन् प्रणि प्रण्यपतत्
प्रण्यपतत्
प्रणिपतितवान्
प्रणिपतितवान् सो हियर् इट् विल् बिकम् अ ण प्रणिपतितवान् अत्रापि ऐ थिङ्क् इट् विल् बिकम् प्रण्यपत प्रणिपतितवान् अस्तु अग्रे सन्ध्या भगिनि
कुरुक्षेत्रे धर्मयुद्धं प्रयोग वर्तते
वर्तते
प्रयोग वर्तत् अवर्तत्
वर्तत
वर्तत प्रावृतत
सर्विकं प्रावर्तत
प्रावर्तत प्रावृतवान्
सम्यक् वृत्तवान् सो वि सा दट् बिफोर् सो इट् इस्
प्रवृत्तवान्
सो द थिङ्ग् इस् टु रिमेम्बर् वाट् वि डिड् बिफोर् सम्यक् सो
हेपेन्ड् रैट् अभवत्
अभवत् अभवत् अभवत् किं महोदय
लट्लकारम् आल्सो शुड् इट् बि प्रवृत्तते देन् प्रवर्तते
प्रवर्तते एव वर्तते
नाट् प्रवृत्तते
न न वृ विल् बिकम् वर्तते लैक् वृ विल् बिकम् या इट् इस् वर्तते एव सो वि विल् चेक् वृ
Pravritti is one of the commonly used words. I was just getting confused.
Vartate. Vartate.
Vartate. Okay.
Vartate. Astu. Astu. Agre. Samayaha. Astu. Samayaha tavat nasti. Idani tavat nasti. Upasarga yuktaihi tavat pratyayanta rupam pullinge vakyani rachayata. So we will do both. Okay. Then we will get more practice. So, atra, so, how many are there? Only this. So, we'll write the lung lakara. Hru asti chet katam bhavati? I mean, lat lakara. Harati. Dish? दिशति दिशति विश विशति न्या
ज्ञाति
जानाति न्या इस जानाति ब्रु
वदति
ब्रूते
ब्रूते
ब्रू ब्रूते
ब्रूते पत् आप
आपयति
no it become apnoti this is different yeah I know apnoti bande
nibandati
bandati bandate I think it is both ubhayapadi I think band is baddate I think badnati okay this is a question mark for me I don't know band ashyam badnati yeah that's what I thought so it become badnati so only by practice we will know all these things so very interesting agrima varge agre gachamah asti idanim shanti mantra muktva samapayamah om sarve bhavantu sukhinah सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनी
धन्यवादः
पुनः मिलामः